धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्समः धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्समः मामकाः पाण्डवाश्चैव किमकुर्वत संजय मामकाः पाण्डवाश्चैव किमकुर्वत संजय
संजय उवाच
दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दुर्योधनस्तदा दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दुर्योधनस्तदा आचार्यम् उपसंगम्य राजा वचनमब्रवीत् आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत्
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मे यच्युत सेनयोः उभयोः मध्ये रथं स्थापय मे यच्युता यावदेतान्निरीक्षेऽहं योधुकामान अवस्थितान् यावदेतान्निरीक्षेऽहं योधुकामान अवस्थितान् कैर्मया सह योधव्यम् अस्मिन् रणसमुद्यमे अस्मिन् रणसमुद्यमे
श्री भगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितं कुतस्त्वा कश्मलमिदं विषमे समुपस्थितं अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन कच्चिदेतच्छ्रुतं पार्थ त्वया एकाग्रेण चेतसा कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय कच्चित् अज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय
अर्जुन उवाच
नष्टो मोह स्मृतिर्लब्धा त्वत्प्रसादात् मया च्युत नष्टो मोह स्मृतिर्लब्धा त्वत्प्रसादात् वचनं तव स्थितोऽस्मि गतसन्देह करिष्ये वचनं तव
संजय उवाच
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुव नीतिर्मतिर्मम तत्र श्रीर्विजयो भूतिर्ध्रुव नीतिर्मतिर्मम